ॐ श्रीगुरुभ्यो नमः हरिः ॐ अथ गणपतिसूक्तम् ॐ आतो न इन्द्रक्षुमन्तं चित्रं ग्राभं संगृभाय महाहस्ति दक्षिणेन विद्माहित्वा तु विकूर्मिन्तु विदेष्णन्तु विमघम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमर्ता सोदित्सन्तम् भीमन्नगां वारयन्ते एतोऽन्विन्द्रं स्तवामेशानं वस्वस्वराजम् न राधसामर्धिषन्नः प्रस्तोषदुपगासि शच्छ्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वाभरधृषता धृष्णो जनानाम् अदाशोष्टरस्य वेदाः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतं सनुहि सद्यो जुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः वशैश्च मक्षूजरन्ते निषुसीदगणपते गणेषु त्वामाहुर्विप्रतमं कवीनां न ऋते त्वत्क्रियते किञ्चन रे महामर्कं मघवं चित्रमर्च अभिख्यानो मघवन्नाधमानां सखे बोधि वसुपते सखीनाम् रणं कृधिरणकृत्सत्यशुष्मा भक्ते चिदाभजाराये अस्मान् गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत न शृण्वन्नोतिभिः सीदसादनम् ॐ शान्तिः 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 हरिः ॐ